एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। संघीय संसदः वर्षाकालिकाधिवेशनम् अद्यतः प्रारभते। संघीय संसदः द्वयोः सदनयोः अद्य उपविश्यमाने संयुक्तोपवेशे राष्ट्रपतिना रामचन्द्र पौडेलेन सर्वकारस्य आगामिनः आर्थिक वर्षस्य कृते प्रस्ताविताः नीति कार्यक्रमाः प्रस्तूयमानाः सन्तीति संसद सचिवालयस्य प्रवक्ता एकराम गिरी असूचयत्। अद्य सायं चतुर्वादनाय आहुते संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशे पादोन चतुर्वादनात् पूर्वमेव उपस्थातुं प्रतिनिधिसभायाः राष्ट्रियसभायाश्च सदस्याः संसद सचिवालयेन अनुरुद्धाः वर्तन्ते। संयुक्तोपवेशे प्रस्तोष्यमाणानां सर्वकारस्य नीति कार्यक्रमाणां रेडियो नेपालेन प्रत्यक्ष प्रसारणं करिष्यते। तत्पूर्वं द्विवादने प्रतिनिधिसभायाः राष्ट्रियसभायाश्च पृथक् पृथक् उपवेशः आहूतोऽस्ति। उपवेशे सर्वकारेण क्रियान्वितानाम् एतद्विक्रमवर्षीयाणां सार्वजनिक क्रयण द्वितीय संशोधनाध्यादेशस्य सार्वजनिक पदाधिकारिणां पदमुक्ति सम्बद्ध विशेष व्यवस्था अध्यादेशस्य सांविधानिक परिषद काम कर्तव्याधिकार कार्यविधि सम्बद्ध प्रथम संशोधनाध्यादेशस्य अन्येषां पञ्चानाम् अध्यादेशानां च प्रस्तुतेः सम्भावित कार्यसूची निर्धारिता स्थिति संसद सचिवालयेन ज्ञापितं वर्तते। राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने कथयति सर्वोच्च न्यायालयस्य प्रधान न्यायाधीशस्य परामर्शनम् संविधानस्य परिपालनम् कृत्वैव सम्भूतमस्ति। दलस्य प्रशिक्षण विभागेन सांसदानां कृते आयोजितस्य प्रशिक्षणस्य समापन समारोहे पूर्वेद्यो सभापतिः लामिछाने सांविधानिक परिषदः संगठनम् प्रधान न्यायाधीशस्य नियुक्तिश्च संविधान सम्मते स्तः इति न्यश्चिनोत्। राजनीतिकावण्टने स्वस्य विश्वासो नास्तीति चर्चयन् सभापतिः लामिछाने न्यायपरिषदा परामृष्टेषु न्यायाधीशानां नामसु एकस्य चयनं सांविधानिक परिषदा विहितमस्तीति स्पष्टीकृतवान्। तदवसरे सभापतिः लामिछाने विधेः निर्माणं जनताया हिते भावनायां च केन्द्रीभूय कर्तुं सांसदान् निरदिशत्। तदवधौ सभापतिः लामिछाने देशे विद्यमानानां समस्यानां समाधानाय अध्यादेशाः आनीताः सन्ति, वर्तमान सर्वकारः जनताया हित विपरीततया अग्रे न वर्धते इति च समस्पष्टयत्। सभापतिः लामिछाने भूम्यावासहीनानां जनानां व्यवस्थापनाय सर्वकारः क्रियाशीलोऽस्ति, केपि जनाः विकल्पविहीनतया गृहवासविहीनाः न भविष्यन्ति इति च प्रतिबद्धतां व्यक्तवान्। परीक्षा नियन्त्रण कार्यालयेन गत विक्रम वर्षीयायाः एसईई इति माध्यमिक शिक्षा परीक्षायाः परिणामस्य प्रकाशनस्य पूर्वकार्यं विहितं वर्तते। गत चैत्र मासस्य एकोनविंशात् दिवसात् एकोनत्रिंशत् दिवसं यावत् सञ्चालितायाः परीक्षायाः उत्तर पुस्तिकानां परीक्षण कार्यं समाप्तमस्ति। सम्प्रति सम्परीक्षण कार्यं जायमानं वर्तते। सम्परीक्षणस्य अनन्तरम् अस्यैव वैशाख मासस्य एकोनत्रिंशत् दिवसम् अर्थात् श्वस्तन दिवसं यावत् परीक्षायाः परिणामः प्रकाशयिष्यते इति राष्ट्रिय परीक्षा समित्या ज्ञापितं वर्तते। गतवर्षे पञ्चलक्षाणि द्वादश सहस्राणि एकचत्वारिंशदधिक शतचतुष्टयं च विद्यार्थिनः माध्यमिक शिक्षा परीक्षायां सहभागिनः आसन्। सर्वकारेण सार्वजनिक सेवा प्रवाहं मर्यादितं स्वच्छं वातावरण मैत्रिणं च विधातुम् अद्यतः ज्येष्ठस्य प्रथमं दिवसं यावत् आराष्ट्रं स्वच्छीकरण सप्ताहं सञ्चालयितुं घोषणा विहितास्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन एकं विशेष मार्गदर्शनं प्रकाश्य संघीय मन्त्रालयेभ्य स्थानीय स्तरं यावत् सर्वे निकायाः अभियानेऽस्मिन् सक्रियेण सहभागिनो भवितुं निर्दिष्टाः वर्तन्ते। अभियानस्य प्रारम्भम् इदानीं प्रातः सार्धाष्टवादने वीरचिकित्सालयात् स्वास्थ्य जनसंख्या मन्त्रिणः निशा मेहता इत्यस्याः उपस्थितौ भविष्यतीति निश्चितं वर्तते। चितवन जनपदस्य भरतपुर महानगरपालिकाया चतुर्थवडा क्षेत्रस्य धर्म चतुष्पथ स्थाने एकस्मिन् भोजनावास गृहे आयोजितस्य विवाहस्य भोजनस्य भक्षणस्य पश्चात् विषाक्तान्नस्य कारणेन रुग्णावस्थां प्राप्तानां जनानां संख्या 93 प्राप्तास्ति। चितवन जनपद प्रहरी कार्यालयस्य प्रमुखस्य प्रहरी उपरीक्षकस्य गोविन्दपुरी इत्यस्य अनुसारेण गत 23 दिवसे विवाह भोजं भक्षितवन्तो जनाः रुग्णाः जायमानाः सन्ति। चितवन वन महाशाखा कार्यालयेन मार्गस्य तटीय क्षेत्रे संकटावस्थापन्नायां विद्यमानानां वृक्षाणां कर्तनस्य कार्यं प्रारब्धं वर्तते। आपटारी स्थानतः देवघट्ट स्थान पर्यन्तिकान् संकटावस्थापन्नायां स्थितान् वृक्षान् प्रचित्य तेषां कर्तनस्य कार्यं प्रारब्धं वर्तते। देवघाट क्षेत्र विकास समित्या 10 वर्षेभ्य नैरन्तर्येण वृक्षाणां कर्तनस्य प्रयासस्य विधानस्य पश्चात् वर्षेस्मिन् आपटारी स्थानात् देवघट्ट स्थान पर्यन्तिकानां 25 वृक्षाणां कर्तनं प्रारब्धं वर्तते। आराध्य देवस्य भगवतः पशुपतिनाथस्य पाशुपत क्षेत्रस्य च महात्म्यस्य बागवत्याः नद्याः वैशिष्टस्य च प्रकाशनस्य उद्देश्येन प्रारब्धा वृहत पाशुपत क्षेत्र पदयात्रा ह्य पाशुपत क्षेत्रं प्राप्तास्ति। महेश संन्यासाश्रमस्य पीठाधीशस्य रमणानन्दगिरी स्वामिनः नेतृत्वे पदयात्रायां विद्यमानः समूह पूर्वेद्युः पाशुपत क्षेत्रं प्राप्तोऽस्ति। गत चैत्र मासस्य 15 दिवसे पाशुपत क्षेत्रस्य शंकराचार्य मठे समुद्घाटनं कृत्वा पशुपतिनाथस्य भागवत्याश्च पूजनेन प्रारब्धा पदयात्रा पूर्वेद्युः पशुपतिनाथ मन्दिरं प्राप्तास्ति। आगामिनी आर्थिक वर्षे उद्योग क्षेत्रस्य विस्तारस्य निवेशनस्य वर्धनस्य च अनुकूलतया आगामी आयव्ययकं निर्मातु नेपाल उद्योग परिसंघेन अनुरूद्धं वर्तते। अर्थमन्त्रिणं डा स्वर्णिम वाग्ले इत्यमुं पूर्वेद्युः तदीय कार्यकक्षे एव मिलित्वा परिसंघस्य अध्यक्षस्य वीरेन्द्र राज पाण्डेविदस्य समूहेन आगामी आर्थिक वर्षम् नैजक्षेत्रस्य विकासस्य वाहकस्य रूपेण स्वीकृत्य उद्योगस्य निवेशनस्य च वर्धनं प्रति आयव्ययकं केन्द्रितं विधातुं परामृष्टम् वर्तते।